ओम नमो भगवते वासुदेवाय। अथैकोनविंशोऽध्यायः। मैत्रेय उवाच, अथा दीक्षित राजा तु हयमेतशतेन सह ब्रह्मावर्ते मनो क्षेत्रे यत्र प्राची सरस्वती, तदभिप्रेत्य भगवान् कर्मातिशयमात्मनः शतक्रतुर्नममृषे पृथोर्यज्ञमहोत्सवम्, यत्र यज्ञपतिः साक्षात् भगवान् हरिरीश्वरः, अन्वभूयत सर्वात्मा सर्वलोकगुरुप्रभुः, अन्वितो ब्रह्म सर्वाभ्यां लोकपालैः सहानुगैः, उपगीयमानो गन्धर्वैर्मुनिभिश्चाप्सरोगणैः, सिद्धा विद्याधरा दैत्यादानवा गुह्यकादयः, सुनन्दनन्दप्रमुखाः पार्षदप्रवराहरेः, कपिलो नारदो दत्तो योगेशाः सनकादयः, तमन्वीयुर्भागवता ये च तत्सेवनोत्सुकाः, यत्र धर्मदुघा भूमिः सर्वकामदुघा सती, दोग्धिस्माभीषितानर्थान् यजमानस्य भारत, उहु सर्वरसान्नद्यः क्षीरदध्यन्नगोरसान्, तरवो भूरिवर्ष्माणः प्रासूयन्त मधुच्युतः, सिन्धवो रत्ननिकरान् गिरयोन्नम् चतुर्विधम्, उपायनमुपाजर्रुः सर्वे लोकाः सपालकाः, इति चाधोक्षजेशस्य पृथोस्तु परमोदयम्, असूयन् भगवानिन्द्रः प्रतिघातमचीकरत्, चरमेणाश्वमेधेन यजमाने यजुष्पतिम्, वैन्ये यज्ञपशुं स्पर्धन्नपो वाहतिरोहितः, तमत्रिर्भगवानैक्षत्वरमाणम् विहाय सा आमुक्तमिव पाखण्डम् यो धर्मे धर्मविभ्रमः, अत्रिणा चोदितो हन्तुम् पृथुपुत्रो महारथः, अन्वधावत सङ्क्रुद्धस्तिष्ठतिष्ठेति चाब्रवीत्। तम् तादृशाकृतिम् वीक्ष्य मेने धर्मम् शरीरिणम् जटिलम् भस्मनाच्छन्नम् तस्मै बाणम् न मुञ्चति, वधान्निवृत्तम् तम् भूयो हन्तवेत्रिरचोदयत्, जहि यज्ञहनम् तात महेन्द्रम् विबुधाधमम्। एवम् वैन्यसुतः प्रोक्तस्त्वरमाणम् विहाय सा अन्वद्रवदभिक्रुद्धो रावणम् गृध्रराडिव, सोऽश्वम् रूपम् च तद्धित्वा तस्मान्तर्हितः स्वराट्, वीरस्वपशुमादाय पितुर्यज्ञमुपेयिवान्, तत्तस्य चाद्भुतम् कर्म विचक्ष्य परमर्षयः, नामधेयम् ददुस्तस्मै विजिताश्व इति प्रभो, उपसृज्यतमस्तीव्रम् जहारास्वम् पुनर्हरिः, चशालयूपतश्छन्नो हिरण्यरसनम् विपुः, अत्री सन्दर्शयामास त्वरमाणम् विहाय सा कपालखट्वाङ्गधरम् वीरो नैनमबाधत, अत्रिणा चोदितस्तस्मै सन्दधे विशिखम् रुषा, सोऽश्वम् रूपम् च तद्धित्वा तस्थावन्तर्हितः स्वराट्, वीरश्चाश्वमुपादाय पितृयज्ञमथा व्रजत्, तदवद्यम् हरे रूपम् जगृहुर्ज्ञानदुर्बलाः, यानि रूपाणि जगृहे इन्द्रो हयजिहीर्षया तानि पापस्य खण्डानि लिङ्गम् खण्डमिहोच्यते, एवमिन्द्रे हरत्यश्वम् वैन्ययज्ञजिघांसया तद्गृहीतविसृष्टेषु पाखण्डेषु मतिर्नृणाम्, धर्म इत्युपधर्मेषु नग्नरक्तपटादिषु प्रायेण सज्जते भ्रान्त्या पेशलेषु च वाग्मिषु, तदभिज्ञाय भगवान् पृथुः पृथुपराक्रमः, इन्द्राय कुपितो बाणमादत्तोद्यतकार्मुकः, तमृत्विजशक्रवधापि सन्दितम् विचक्ष्य दुष्प्रेक्ष्यमसह्यरम्हसम्, निवारयामासुरहो महामतेन युज्यतेऽत्रान्यवध प्रचोदितात्, वयम् मरुत्वन्तमिहार्थनाशनम् वयामहे त्वच्छ्रवसा हतत्विषम्, अयातयामोपहवैरनन्तरम् प्रसह्य राजन् जुहवाम ते हितम्, इत्यामन्त्र्य क्रतुपतिम् विदुरास्यर्त्विजोरुषा, सृग्हस्ताञ्जुवतोऽभ्येत्य स्वयम्भूः प्रत्यषेधत, नवध्यो भवतामिन्द्रो यद्यज्ञो भगवत्तनु, यम् जिघांसस यज्ञेन यस्येष्टास्तनवस्तुराः, तदिदम् पश्यत महद्धर्मव्यतिकरम् द्विजाः, इन्द्रेणानुष्ठितम् राज्ञः कर्मैतद्विजिघांसता, पृथुकीर्ते पृथोर्भूयात्तर्येको न शतक्रतुः, अलम् ते क्रतुभिः स्विष्टैर्यद्भवान् मोक्षधर्मवित्, नैवात्मने महेन्द्राय रोषमाहर्तुमर्हसि, उभावपि भद्रम् ते उत्तमश्लोकविग्रहौ, मास्मिन् महाराजकृथास्म चिन्ताम् निशामयास्मद्वचाद्रितात्मा, यद्ध्यायतो दैवहतम् नु कर्तुम् मनोतिरुष्टम् विशते तमोऽन्धम्, क्रतुर्विरमतामेष देवेषु दुरवग्रहः, धर्मव्यतिकरो यत्र पाखण्डैरिन्द्रनिर्मितैः, एभिरिन्द्रोपसंसृष्टैः पाखण्डैर्हारिभिर्जनम्, ह्रियमाणम् विचक्ष्वैनम् यस्ते यज्ञधृगस्वमुट्, भवान् परित्रातुमिहावतीर्णो धर्मम् जनानाम् समयानुरूपम्, वेनापचारादवलुप्तमद्य तद्देहतो विष्णुकलासि वैन्य, सत्त्वम् विमृश्यास्य भवम् प्रजापते सङ्कल्पनम् विश्वसृजाम् पिपीप्रिः, ऐन्द्रीं च मायामुपधर्ममातरं प्रचण्डपाखण्डपथं प्रभोजहि। मैत्रेय उवाच, इत्थं स लोकगुरुणा समादिष्टो विशाम्पतिः, तथा च कृत्वा वात्सल्यं मघोनापि च सन्दधे, कृत्वा बभृतस्नानाय पृथवे भूरि कर्मणे, वरान्ददुस्ते वरदा ये तद्बर्हिषितर्पिताः, विप्रा सत्याशिषस्तुष्टा श्रद्धया लब्धदक्षिणाः, आशिषो युयुजो क्षत्तरादिराजाय सत्कृताः, त्वया हूता महाबाहो सर्व एव समागताः, पूजिता दानमानाभ्यां पितृदेवर्षिमानवाः। ओम स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पृथुविजये एकोनविंशोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।